ಕೇನಾಕ್ಷರಸಮಾಂ ನಾಯಂ ಅಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃತ್ಸ್ನಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ ವಾಕ್ಯಕಾರಂ ವರ ರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತೀಃ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಹಿಂ ವಿರಚ್ಯತೆ ವ್ಯಾಕರಣಶಾಸ್ತ್ರಸ್ಯ ಪರಂಪರಾ ವಿಷಯೆ ಕಥಮಾರಬ್ಧಂ ಶಾಸ್ತ್ರಂ ಕಥಂ ವರ್ಧಿತಂ ಇತ್ಯಾದಿ. ವಸ್ತುತಃ ವೇದೇಶು ಏವ ತತ್ಸಂಬದ್ಧಂ ವ್ಯಾಕರಣಂ ಅಸ್ತಿ. ಪ್ರತಿ ಶಾಖಂ ಸಾತಿ ವೇದಸ್ಯ ಪ್ರತ್ಯೇಕಂ ಶಾಖಾಯಾಃ ಪ್ರಾತಿಶಾಖ್ಯಂ ನಾಮ ಕಶ್ಚನ ಭಾಗಃ ವಿದ್ಯತೆ. ಯಃ ತಚ್ಚಾಖಾಸಂಬದ್ಧಾನ್ ವ್ಯಾಕರಣನಿಯಮಾನ್ ನಿರ್ದಿಶತಿ. ಅತಃ ಇದಾನಿಂ ಯಜುರ್ವೇದಸ್ಯ ಅಥವಾ ಕೃಷ್ಣಯಜುರ್ವೇದಸ್ಯ ತಸ್ಯಾಶ್ಚಿಚ್ಛಾಖಾಯಾಃ ಅಧ್ಯಯತೃಣಾಂ ಕೃತೆ ತಸ್ಯಾಂ ಪ್ರಾತಿಶಾಖ್ಯಾಯಾಂ ತಸ್ಮಿನ್ ಪ್ರಾತಿಶಾಖ್ಯೆ ಯೇ ಯೇ ನಿಯಮಾಃ ನಿರ್ದಿಷ್ಟಾಃ ತೇ ಏವ ಪ್ರಮಾಣಂ. ಅದ್ಯಾಪಿ ತಥೈವ ಪಾಣಿನೀಯ ವ್ಯಾಕರಣೆ ಸತ್ಯತಿ ಯದಿ ಕುತ್ರಚಿತ್ ಸಂದೇಹಃ ಭವತಿ ತರ್ಹಿ ಪ್ರಾತಿಶಾಖ್ಯಸ್ಯ ಆಧಾರೇಣೈವ ನಿರ್ಣಯಃ ಕ್ರಿಯತೆ ವೇದಸ್ಯ ವಿಷಯ. ತಥೈವ ವೇದಾಂಗಾನಿ ಚ ಪ್ರಸಿದ್ಧಾನ್ಯೇವ ಶಿಕ್ಷಾ ವ್ಯಾಕರಣಂ ಛಂದಃ ನಿರುಕ್ತಂ ಜ್ಯೋತಿಷಂ ಕಲ್ಪಃ ಇತ್ಯೇತಾನಿ ಷಟ್ ಅಂಗಾನಿ ವೇದಸ್ಯ. ತತ್ರ ತ್ರೀಣಿ ಅಂಗಾನಿ ವಸ್ತುತಃ ಶಬ್ದಾನಾಂ ಅರ್ಥಾನಾಂ ಚ ವಿಷಯ ಏವ ಸಂತಿ. ಶಿಕ್ಷಾ ಶಿಕ್ಷಾ ನಾಮ ಉಚ್ಚಾರಣ ಗ್ರಂಥಃ. ವರ್ಣಾಃ ಕಥಂ ಉಚ್ಚಾರಣೀಯಾಃ ಕಥಂ ಸ್ವರಾಃ ಉಚ್ಚಾರಣೀಯಾಃ ಇತ್ಯಾದಿ ಉಚ್ಯತೆ ಶಿಕ್ಷೆಯ. ವ್ಯಾಕರಣಂ ಶಬ್ದನಿಷ್ಪತ್ತಿಃ ನಿರುಕ್ತೇ ಶಬ್ದಾನಾಂ ಅರ್ಥಃ ಕಥಂ ಇತ್ಯುಕ್ತೆ ನಿಷ್ಪತ್ತಿ ಸಂಬದ್ಧಮೇವ ಶಬ್ದಾನಾಂ ಅರ್ಥಃ ಕಥಂ ಕರ್ತವ್ಯಃ ಇತಿ ನಿರುಕ್ತೇ ಉಚ್ಯತೆ. ಏವಂ ಚ ವಸ್ತುತಃ ತ್ರೀಣ್ಯಪಿ ಇಮಾನಿ ಅಂಗಾನಿ ಶಿಕ್ಷಾ ವ್ಯಾಕರಣಂ ನಿರುಕ್ತಂ ಇತಿ ಪರಸ್ಪರ ಸಂಬದ್ಧಾನಿ ತಥೈವ ಶಬ್ದ ಅರ್ಥ ಸಂಬದ್ಧಾನಿ ಚ ಸಂತಿ. ತತ್ರ ವೇದಾಂಗಂ ವ್ಯಾಕರಣಂ ಇತ್ಯಸ್ತಿ. ಕಿಂಚ ಪಾಣಿನಿಃ ವಸ್ತುತಃ ಪ್ರಥಮಃ ವೈಯಾಕರಣಃ ನಾಸ್ತಿ. ಪಾಣಿನಿ ಡಿಡ್ ನಾಟ್ ಸ್ಟಾರ್ಟ್ ವ್ಯಾಕರಣ. ಪಾಣಿನೇಃ ಪ್ರಾಕ್ಕಾಲೇ ಏವ ಬಹವಃ ವೈಯಾಕರಣಾಃ ಆಸನ್ ತೇಷಾಂ ತೇಷಾಂ ವ್ಯಾಕರಣಾನ್ಯಪಿ ಆಸನ್. ಇದಾನೀಂ ಯಥಾ ವಯಂ ಪಾಣಿನೀಯಂ ವ್ಯಾಕರಣಂ ಇತಿ ಪಠಾಮಃ ತಥಾ ಪೂರ್ವಕಾಲೇ ಬಹೂನಿ ವ್ಯಾಕರಣಾನಿ ಆಸನ್ ಬಹುಭಿಃ ಆಚಾರ್ಯೈಃ ಪ್ರಣೀತಾನಿ. ಯಥಾ ಶಾಕಲಃ ಇತಿ ಕಶ್ಚನ ಆಚಾರ್ಯ ಶಾಕಟಾಯನಃ ಇತಿ ಕಶ್ಚನ ಆಚಾರ್ಯ ಏತೈಃ ಪ್ರಣೀತಾನಿ ಬಹುವಿಧಾನಿ ವ್ಯಾಕರಣಾನಿ ಆಸನ್. ಉಚ್ಯಂತೆ ಶ್ಲೋಕಃ ಲಘುತ್ರಿಮುನಿ ಕಲ್ಪತರುಃ ಇತಿ ಗ್ರಂಥೇ ಅಯಂ ಶ್ಲೋಕಃ ವಿದ್ಯತೆ. ಐಂದ್ರಂ ಸಾಂದ್ರಂ ಕಾಶಕೃತ್ಸ್ನಂ ಕೌಮಾರಂ ಶಾಕಟಾಯನಂ ಸಾರಸ್ವತಂ ಚಾಪಿಶಲಂ ಶಾಕಲಂ ಪಾಣಿನೀಯಕಂ ನವ ವ್ಯಾಕರಣಾನಿ ಅತ್ರ ಉಲ್ಲಿಖ್ಯಂತೆ. ಐಂದ್ರಂ ಇಂದ್ರಃ ಇತಿ ಕಶ್ಚನ ಮುನಿಃ ತೇನ ಪ್ರಣೀತಂ ವ್ಯಾಕರಣಂ ಐಂದ್ರಂ ಚಾಂದ್ರಂ ಚಂದ್ರೇಣ ಪ್ರಣೀತಂ ಕಾಶಕೃತ್ಸ್ನಂ ಕಾಶಕೃತ್ಸ್ನಃ ಇತಿ ಕಶ್ಚನ ವ್ಯಾಕರಣಃ ಕೌಮಾರಂ ಕುಮಾರಃ ಇತ್ಯೇಕಃ ಶಾಕಟಾಯನಂ ಶಾಕಟಾಯನಃ ಇತಿ ಕಶ್ಚನ ಸಾರಸ್ವತಂ ಆಪಿಶಲಂ ಆಪಿಶಲೇಃ ಇದಂ ಆಪಿಶಲಂ ಶಾಕಲಂ ಶಾಕಲಃ ಅಥವಾ ಶಾಕಲ್ಯಃ ಇತ್ಯೇಕಃ ಪಾಣಿನೀಯಕಂ ತಥೈವ ಪಾಣಿನಿನಾ ವಿರಚಿತಂ. ಏವಂ ನವವಿಧಾನಿ ವ್ಯಾಕರಣಾನಿ ಆಸನ್ ಇತಿ ಅನೇನ ಗ್ರಂಥೇನ ಜ್ಞಾಯತೆ. ಅನ್ಯಃ ಕಶ್ಚನ ಗ್ರಂಥಃ ಅಷ್ಟೌ ವೈಯಾಕರಣಾನ್ ನಿರ್ದಿಶತಿ ನಾಮ್ನ. यथा इन्द्रः चन्द्रः काशकृत्स्नापिशलि काशकृत्स्नः आपिशलिः शाकटायनः पाणिनिः अमरः जैनेन्द्रः. दीस् आर् नाट् ऐडेण्टिकल्. अत्र नवव्याकरणानि लिख्यन्ते, अत्र अष्टौ वैयाकरणाः भिन्नाः सन्ति, केचन उभयत्र सन्ति. यथा इन्द्रः चन्द्रः काशकृत्स्नः आपिशलिः शाकटायनः पाणिनिः अमरः जैनेन्द्रः इति अस्मिन् ग्रन्थे. अनेन किं ज्ञायते? पाणिनीयव्याकरणमेव व्याकरणम् इति नास्ति. पाणिनेः या परम्परा विद्यते तद्भिन्नान्यपि व्याकरणानि आसन्, इदानीमपि केचन कानिचन सन्ति, किन्तु पाणिनीयव्याकरणस्यैव अत्यन्तं प्रामुख्यं विद्यते. येषु दिनेषु पाणिनीयमेव व्याकरणं पठ्यते सर्वैः, तत्र कारणान्यपि सन्ति. ततः प्राक् अन्यत् किञ्चित्, अष्टाध्याय्यां पाणिनिना एव केषाञ्चन वैयाकरणानां नामानि उल्लिखितानि सन्ति. यथा भिन्नेषु सूत्रेषु वासुप्यापिशलेः उक्त्यस्ति, वासुपि आपिशलेः, अर्थात् आपिशलेः मते इदं भवति इति पाणिनिना उच्यते. अर्थात् आपिशलिः नाम वैयाकरणः पाणिनेः प्राक्कालिकः आसीत्, तेन कानिचन केचन नियमाः उक्ताः, तेषां नियमानां पाणिनेः अङ्गीकारः अस्ति वा नास्ति अथवा विकल्पेन इत्यादि उच्यते पाणिनिना. अनेन तस्य प्राक्कालिकानां वैयाकरणानां नामानि अष्टाध्याय्याः सूत्रेभ्यः एव ज्ञायन्ते. अत्र सन्ति दश वैयाकरणाः इति मन्ये, पाणिनिना नाम्ना उल्लिखितानि अष्टाध्याय्याम्. आपिशलिः, काश्यपः, गार्ग्यः, चाक्रवर्मणः, गालवः, शाकल्यः, शाकटायनः, सेनकः, स्फोटायनः, भारद्वाजः. भिन्नेषु भिन्नेषु सूत्रेषु एतेषां नामानि उल्लिखितानि पाणिनिना. यथा अवङ्स्फोटायनस्य इत्युच्यते, तेन स्फोटायनस्य नाम ज्ञायते. अड् गार्ग्यगालवयोः इत्युच्यते, तेन गार्ग्यस्य गालवस्य च नामानि नाम्नि ज्ञायते. एवं किन्तु सत्स्वपि बहुषु व्याकरणेषु पाणिनीयं व्याकरणमेव अत्यन्तं सर्वेषां जनानाम् आदरं प्राप्तवत्. इदानीमपि पाणिनीयव्याकरणस्य अध्ययने एव सर्वे श्रद्धालवः. तत्र किं कारणम् इति प्रश्नः. बहूनि वैशिष्ट्यानि सन्ति पाणिनीयव्याकरणस्य. तत्र आदौ इदमेकमस्ति यत् वैदिकलौकिकानां सर्वेषां शब्दानां निष्पत्तिः पाणिनीयव्याकरणद्वारा क्रियते. मया पूर्वमुक्तं किल, पाणिनेः पूर्वमपि व्याकरणपरम्पराः आसन्, किन्तु तदा व्याकरणशास्त्रे विभागः आसीत्. अर्थात् केचन कानिचन व्याकरणानि लौकिकशब्दानां निष्पत्त्यर्थमेव निर्मितानि, कानिचन व्याकरणानि वैदिकशब्दानां निष्पत्त्यर्थमेव निर्मितानि. सो देर् वास् अ बैफर्केशन्, देर् वर् व्याकरणस् विच् आर् डीलिङ्ग् प्योर्लि वित् क्लासिकल् संस्कृत् अण्ड् दोस् विच् आर् डीलिङ्ग् प्योर्लि वित् वेदिक् संस्कृत्. ओके, देर् वास् अ डिफरेन्स् दट् द you call the synchrony or bringing those together, that is bringing both Vedic Sanskrit and classical Sanskrit together under an umbrella was achieved by Panini. Panineha sutreshu yatha laukika shabdanam nishpattihi tathaiva vaidika shabdanam api nishpattihi asti tesham swara vishaye api sutrani santi. So it is the most comprehensive grammar available. संस्कृतभाषायां येषां पदानां प्रयोगः अस्ति तेषां सर्वेषां पदानां निष्पत्तिं साधयितुं पाणिनीयं व्याकरणं रचितम्. सर्वेषां पदानां निष्पत्तिः भवति उत न इति अन्यः प्रश्नः. केचन शब्दाः स्युः ये कात्यायनेन भाष्यकारेण वा उल्लिखिताः पाणिनीये नास्ति सन्ति सत्यं, बट् हि कवर्स् आल्मोस्ट् 98% आफ् द वर्ड्स् विच् वेर् इन् यूस् इन् हिस् टैम्. सो तेषां सर्वेषां निष्पत्तिं प्रदर्शयितुं पाणिनिना प्रयत्नः कृतः, स च सफलः. अत एव अद्यापि इत्युक्ते पाणिनेः कालादनन्तरं पाणिनीयमेव व्याकरणम् अधीयते, नान्यानि व्याकरणानि. आल् अदर् सिस्टम्स् आफ् व्याकरण वेर् एक्लिप्स्ड् बै पाणिनि, बिकास् इस् द मोस्ट् कम्प्रहेन्सिव् सिस्टम् आफ् ग्रामर् अवेलेबल्. एण्ड् द सेम् टैम् इट् इस् द It is very exact. As you will see in the Paninian system, there are many things which make for a good sutra grantha. Sutram namakim, katham sutram rasaniyam, ityatrapi niyamaha santi. Ete sarvepi niyamaha paniniye granthe asthat sutreshu santi. Ata eva paniniyam vyakaranam atyantam janapriyam vartate. Any questions? Shruyate va samyak? ప్రశ్నా సంతి అగ్రే సరామా కించిత్ మునిత్రయం ఇతి ఉక్తం పాణినిః వార్తికకారః కాత్యాయనః తథైవ పతంజలిః భాష్యకారః తేషాం విషయే కించిత్ పశ్యామః. పాణినిః సూత్రకారః, పాణినిం సూత్రకారం చ ఇతి శ్లోకే అస్తి. తస్య వైయక్తిక జీవన విషయే కిమపి న జ్ఞాయతే, అర్థాత్ అష్టాధ్యాయం కిమపి నాస్తి, సూత్రం విహాయ స్వస్య విషయే వా కిమపి నాస్తి, మంగళ శ్లోకః అపి నాస్తి పాణినేః గ్రంథే. అతః తస్య గ్రంథ ద్వారా తస్య విషయే కిమపి జ్ఞాతుం న శక్యతే. తథైవ ఐతిహాసిక కిమపి ఆధా ఐతిహాసికాః ఆధారాః అపి న సంతి వక్తుం, కేవలం అనుమీయతే. Their scholars just guess at different things of Panini based on different evidences. Tasya pitroha vishaye, tasya mata dakshi, tathaya pita shalankuhu. Bhashyakarena iva bhashye, dakshi putrasya iti prayogam karoti, paninehe iti. Paninehe dakshi putraha iti. Evam eva anyesham vidushaam prayogaihi jnayate, tasya mata dakshi, pita shalankuhu iti. ఏమేవ తస్య జన్మస్థలం శాలాతుర గ్రామః, అతయేవ సః శాలాతురీయః ఇత్యపి ప్రసిద్ధః. శాలాతురః అద్యతన లాహోర్, పాకిస్తానే లాహోర్ సమీపే అస్తి తస్య జన్మస్థలం ఇత్యుచ్యతే. తస్య కాలస్య విషయేపి బహవః అభిప్రాయభేదాః సంతి. క్రిస్తపూర్వ సప్తమశతమానం ఇది కేచన వదంతి, చతుర్థశతమానం ఇది కేచన, మధ్యేపి సంతి అభిప్రాయాః. Somewhere between 7th century BC and 4th century BC. So different scholars place Paninis there. And not later than 4th century BC. Tasya kritishu ashtadhyayi iti nama janimaha. Kintu Paniniya vyakarane pancha angani santi. Ashtakam dhatu patashta gana patastathaivacha. లింగానుశాసనం శిక్ష పాణినీయాః అంగీక్రమాత్. అష్టకం నామ అష్టాధ్యాయీ, ధాతుపాఠః గణపాఠః లింగానుశాసనం శిక్ష పాణినీయ శిక్ష ఇత్యేతత్ సర్వం మిలిత్వా పాణినీయం వ్యాకరణం ఇది ఉచ్యతే. పంచ అంగాని సంతి పాణినీయ వ్యాకరణస్య, కేవలం అష్టాధ్యాయీ కింతు అన్యాన్యపి అత్యంతం ఆవశ్యకాని. ఏతదతిరిచ్య తేన జాంబవతీ విజయం ఇది ఏకం కావ్యం నాటకం ఇది మన్యే విరచితం ఇత్యపి వదంతి, కింతు అధునా నోపలభ్యతే సహ గ్రంథః. పాణినీయ వ్యాకరణస్య అంగాని తత్ర ఆదౌ అష్టాధ్యాయీ. అష్టాధ్యాయీ సూత్రగ్రంథః, అర్థాత్ సూత్రాణాం ఆవలిః తావదేవ. ఇట్స్ జస్ట్ అ కలెక్షన్ ఆఫ్ సూత్రాస్ ఆర్ రూల్స్. అష్టౌ అధ్యాయాః సంతి ఇత్యతః తస్యాః అష్టాధ్యాయీ ఇది నామ. ప్రత్యేకం అధ్యాయే చత్వారః పాదాః సంతి. ప్రథమాధ్యాయః సత్ర ప్రథమః పాదః, ద్వితీయః పాదః, తృతీయః పాదః, చతుర్థః పాదః ఇది చత్వారః పాదాః. ఏవం అష్టసు అధ్యాయేషు ఆహత్య ద్వాత్రింశత్ పాదాః సంతి అష్టాధ్యాయ్యాం. ప్రాయేణ చతుస్సహస్రం సూత్రాణి సంతి ఆహత్య అష్టాధ్యాయ్యాం. కేవలం సూత్రపాఠ విద్యతే అష్టాధ్యాయం. సూత్రాణం అర్థకః ఇది క్వాపి నోచ్యతే, ఉదాహరణాని కాని ఇత్యపి నోచ్యతే. కేవలం వృద్ధిరాదయ జగయం గుణ ఏకో గుణ వృద్ధి इत्यादि रीत्या सूत्राणां संहिता पाठः एव अस्ति. अष्टाध्यायी डज नॉट हैव एनीथिंग एल्स अदर देन द लिस्ट ऑफ सूत्र. इट डज नॉट से व्हाट द सूत्र मीन्स, वेयर इट शुड बी अप्लाइड, व्हाट इज एन एग्जांपल, नथिंग. ही टेल्स नथिंग एक्सेप्ट अ लिस्ट ऑफ सूत्र इन अ पर्टिक्युलर ऑर्डर. सूत्राणि प्रकरणशः निबद्धानि. कथम् आरभ्यते इति प्रश्नः. पाणिनीय अष्टाध्याय्यां कोऽपि क्रम एव नास्ति इति केचन चिन्तयन्ति, यतोहि इदानीं सिद्धान्तकौमुदीं पठामश्चेत् सूत्राणि भिन्नविधानि सन्ति. आदौ संज्ञासूत्राणि, परिभाषासूत्राणि इत्यादीनि सन्ति. पाणिनिना तेन क्रमेण सूत्राणि न निबद्धानि अष्टाध्याय्यां, किन्तु तस्य क्रमे, अष्टाध्याय्याः क्रमे प्रकरणशः निबद्धानि. अर्थात् इदानीम् इत् संज्ञा इति काचन संज्ञा अस्ति, इत् इति संज्ञा विधीयते. सर्वाणि इत्संज्ञाविधायकाणि सूत्राणि एकत्र भवन्ति. एवमेव णत्वम् इत्यस्ति चेत् सर्वं शाभ्यां नोणः इत्यारभ्य सर्वाणि णत्वविधायकानि सूत्राणि एकत्र उच्यन्ते. समासः इत्यस्ति चेत् समासविधायकानि सूत्राणि एकत्र भवन्ति. एवं प्रकरणशः सूत्राणि निबद्धानि. अष्टाध्याय्याः अध्ययने तेषां प्रकरणां ज्ञानेन महत् सौलभ्यं भवति. इनिशियली टु अ बिगिनर अष्टाध्यायी मैट् सीम् टु बि अनऑर्डर्ड् बिकास् हि स्टार्ट्स् वित् वृद्धि अण्ड् गुण अण्ड् देन् हि टेल्स् समथिङ्ग् एल्स्. हि गोज़् आन् टु डिफरेण्ट् संज्ञास्, देन् हि टेल्स् कारक, देन् हि गोस् टु समास, देन् हि टेल्स् विभक्ति. सो इट् इस् नाट् इन् अन् आर्डर् which we are used to say. I mean, if you studied the Kaumudi, Kaumudyaha kramaha bhinnaha, Ashtadhyayaha kramaha bhinnaha, Kaumudyaha uddeshyam api bhinnam, Ashtadhyayaha uddeshyam api bhinnam. It is very important to realize that the purpose of Ashtadhyayi is different than the purpose of Kaumudi. And that is why the sutra krame vyatyaha dashyata. Ashtadhyayam paninehe kim uddeshyam? सर्वाणि सूत्राणि अर्थात् सर्वे प्रयोगाः साधनीयाः इत्येकम्. तेषां साधनं यावच्छक्ति अल्पाक्षरैः भवेत्. सूत्रं नाम किम् इति अग्रे उच्यते. अल्पाक्षरम् असन्दिग्धम् इत्यादिना उच्यते. अल्पाक्षरत्वम् अत्यन्तं संक्षेपरूपेण कथनं सूत्रस्य प्रथमं लक्षणम्. द फस्ट् कैरेक्टरिस्टिक् आफ् अ सूत्र इस् दैट इट् शुड् बी वेरी ब्रीफ, वेरी प्रिसैस्. So he cannot say write long sentences giving each rule. Say savarna dirgha sandhihi ityasti. Idanim kim paathashalasu katham patyate savarna dirgha sandhihi ityukte vadanti. Akarabhyam prak akaraha akaro va bhavati cet akaraha adesho bhavati. Ikara ikarabhyam paratvena ikara ikaro yadistaha tarhi ikaraha adeshaha bhavati. Ityadi ritya niyamaha uchyante. सः क्रमः पाणिनेः नास्ति. दट् इस् नाट् द वे टु कम्पोस् अ सूत्र. हि जस्ट् पुट्स् एव्रिथिङ्ग् टुगेदर् अण्ड् सेस् अकस्सवर्णे दीर्घः. सो टु अचीव् दिस् कम्पाक्ट्नेस् आफ् सूत्रस् किं करणीयम् इति तस्य प्रश्नः. सर्वं वक्तव्यं किन्तु संक्षेपेण वक्तव्यं. कथं वक्तव्यम् इति प्रश्नस्य उत्तररूपेण अष्टाध्यायी रचित. अष्टाध्याय्याः क्रमः तत्रैव अस्ति. सर्वं वक्तव्यं संक्षेपेण वक्तव्यं, किञ्च यत्र यत्र विप्रतिषेधः भवति, अर्थात् इदं सूत्रं करणीयं वा तत् सूत्रं करणीयं वा, अस्य सूत्रस्य प्रवृत्तिः भवति वा तत्र सूत्रस्य वा इति प्रश्ने तेषाम् उत्तरमपि भवेत्. सो एतत् सर्वं सङ्गृह्य हि हेस् डन् अ वेरि काम्पाक्ट् जाब् विच् इस् आल्सो आर्डर् एण्ड् हि हेस् आल्सो इन्क्लूडेड् means of disambiguation. If you go to some technical or thing where they talk about the technical details of Ashtadhyayi which make it like a computer program, that is something which is very popular these days, where they have examined why Ashtadhyayi is so precise. It is because it is a self-containing grantha. That is, it does not, Panini does not want any other tools to interpret his grantha. He himself defines his terminology. He tells how to interpret his sutras. He gives his sutras. He tells how to resolve conflicts between sutras. He tells what gains precedence over what. everything he has put into one grantha, and hence that grantha is, every word of that grantha is important. Ekam api aksharam vyathan nasti paniniye ityekam. Kramaha api atyantam pramukha bhavati. Yadi ashtadhyayaha sutranam krame bheda hasyat, tarhi prayoge api atyantke api vyatya hasyat. So all those put together form ashtadhyayi. Sutra kramaha atra atyantam pradhanaha. Kimartham ityatra sadeva. Bahuni karana ayasanthi. Anuvrittihi adhikaraha ityasti. Anuvrittihi nama. Udaharanartham yathamayaktam natva prakaranam ityasti. Nakarasya sthane nakaraha vidhiyate. Prathama sutre ki muktavan rashabhyam nunaha samanapade. Repushkarabhyam parasya nakarasya sthane nakaraha bhavati. Yani anyani sutrani vaktavyani yatra nakarasya sthane nakaraha bhavati. Yadi pratyekam vakye saha suttadvadati nunaha rathar nakarasya nakaraha bhavati iti uchyate. Tarhi sankshepaha nashyati. So the compactness will be lost if he mentions that thing, that nakara will be replaced by nakara in every of his rule. Even though every rule will have that part, say there are 50 rules which say nakara is replaced by nakara, he will not say, repeat that phrase in all. So he takes the common factor and he puts it in the first sutra, nonaha. Nakarasya sthane nakaraha bhavati. Agrima sutreshu nonaha iti kvapi nopayujyate. So you take that nonaha from the first sutra to the next, to the next, to the next, and so on. That is what we call anuvritti. Anuvrittihi nama purva sutre vidyamanani padani agrima sutreshu upayujyante. Ataha anuvrittyartham sutra kramaha atyantam pradhanaha. So if you take, if there are sutras in order, if you put the 10th sutra before the first sutra, anuvritti is lost. So because of this inheritance, property of inheritance, he is inheriting, each sutra will inherit some one or more words from previous sutras. And not just from the immediately previous. Each sutra will have anuvritti from many different sutras. Ekasmin sutre, panchabhihi sutrehi anuvrittihi syat. Athava ekatsmat sutra anuvrittihi syat. Evam anuvritti, anuvrittim sadhayitum sutra kramaha pradhanaha. Evam eva adhikaraha ityasti. Adhikaraha, adhikara is like a long, anuvritti which spreads over a very long time. Example, samasa prakaranam arabhyate. Sarvasmin sutre saha samasaha iti navadati. Kim vadati? Adau prak kadarat samasaha. Kadarat karmadhane iti sutra paryantam. Prayaha ashtadhyayaha dvau padau. He says there are two padas. So he says together comprising the whole thing it will be samasa. That is called adhikara. So samasa adhikare yani yani sutrani uktani. Sarvaihi sutrehi samasaha vidhiyate. All those sutras deal with samasa. So which is like a section header. He says this section deals with samasas. And he says this section will deal with pratyaya. Pratyaya ityadhikaraha adhyaya trayam asti. It covers three entire chapters of ashtadhyayi, say the third, fourth and fifth. So anuvrittihi adhikaraha ityeta dvayam sadhetum sutra kramaha pradhanaha. Kashchana prashnaha krataha bhavanam honayena. Anuvrittihi adhikarova. Kiyat paryantam gachyati iti katham nyayate iti prashnaha. Kvachit paninivaiva uchyate. Yatha prak kadarat samasaha. Kadaraha karmadharaye iti sutram asti. Tavat paryantam samasa adhikaraha iti paninivaiva uchyate. Tena gyayate. Kintu bahushisthadesha tathana uchyate. Kevalam pratyaha iti uchyate. Pratyaya adhikaraha kiyat duram gachyati iti sutrena nagyayate. Atayeva bhashyam atyantam pradhanam. That is where the bhashya, the articles of the bhashya come in. Ashtadhyayi, even though it is so compact and self-sufficient, it is many times not possible to interpret it completely without the help of a commentary. Irani metha, anuvrittihi ityasti ikoyanachi iti sutrate achi iti anuvartate. Kiyadduram anuvartate, keshu keshu sutreshu anuvrittihi asti. Granthadhyayena na jnayate. Kevalam ashtadhyayaha pathanena anuvrittehe adhikarasya va kaha ka seema iti na jnayate. Atayeva yatra yatra asmakam sandeha asti tatra
अस्माकं व्याकरणे एकम् उच्यते व्याख्यानतः विशेषप्रतिपत्तिः, यत्र यत्र सन्देहः तत्र व्याख्यानतः सन्देहस्य निवारणम्, व्याख्यानम् इत्यत्र महाभाष्यस्यैव प्राधान्यम्. So, as you'll see, Mahabhashya is a much more detailed grantha than the Ashtadhyayi. So, Mahabhashya yaduktam tadanusritya asmabhihi nirnayakriyate athava annyehi vyakhyanehi nirnayakriyate. So, sutrakamaha anuvrittihi adhikaraha asiddhatvam iti kashtana vicharaha vidyate. Asiddhatvam namakim iti jnayate agre. Asiddhatvam यत्र पूर्वसूत्रं प्रति परं सूत्रम् असिद्धम् इति उच्यते. अर्थात् सूत्र असिद्ध इस् अ वेरि इट्स् वन् आफ् द फौण्डेशन् कान्सेप्ट्स् आफ् अप्लैङ्ग् सूत्र, विच् मीन्स् दट् वन् सूत्र विल् नाट् नो वट् इस् द कार्य डन् बै द अदर् सूत्र. एकं सूत्रमस्ति, तेन सूत्रेण किमपि कार्यं क्रियते, अन्यत् सूत्रं तत्सूत्रं न जानाति, तेन सूत्रेण कृतं कार्यं न जानाति. कोऽर्थः? उदाहरणार्थं विसर्गसन्धिः अस्ति, सः आगच्छति इत्यस्ति, तत्र विसर्गस्य लोपो भवति, स आगच्छति. इदानीं वस्तुतः स आगच्छति इति स्थिते अकस्सवर्णदीर्घः इत्यनेन सवर्णदीर्घसन्धिः करणीयः. सो ऐ मीन् नेचुरलि द रूल् फार् अप्लैङ्ग् सवर्णदीर्घ, द कण्डीशन् फार् अप्लैङ्ग् सवर्णदीर्घ आर् प्रेसेण्ट्. स आगच्छति, किन्तु सवर्णदीर्घसन्धिः न क्रियते. स आगच्छति इत्येव वक्तव्यं, सागच्छति इति न भवति. कुतो न भवति इत्युक्ते तस्य विसर्गस्य यः लोपः कृतः, सः लोपः सवर्णदीर्घं सन्धिं प्रति असिद्धः. सवर्णदीर्घसन्धि अद् रूल् फार् सवर्णदीर्घसन्धि विच् इस् अकस्सवर्णदीर्घः इति सूत्रं प्रति लोपविधायकं सूत्रम् असिद्धम्. विच् मीन् सवर्णदीर्घसन्धि विल् ट्रीट् द सिचुएशन् as if lopa has not occurred. Savarnadirgha sandheha, athan akasavarnadirgha hati sutrasya drishtya, tatra visargaha. Vastutaha visargasya lopaha nasti, yakarasya lopaha, taha yakaraha tatra asti. Savarnadirgha sandheha drishtya, visargasya lopaha nakrataha. Lopaha nasti che, akasavarnadirgha hati sya vakashaha nasti. So this is one example of asiddhatva, where the karya done by one a particular sutra is masked to other sutras. So other sutras will not see this karya. They will see the previous stage. Asmakam tu sarvam jnayate, ataha vayam sva agachati iti prayanjmahe, kintu savarnadirgha sandheha drishtya tatra visargasya lopaha nakritaha. So for this asiddhatva also, sutra kama is highly important. Tat katham iti jnayate agre. And paratva purvatva nirnayaha. इदानीं क्वचित् सूत्रद्वयस्य प्रवृत्तेः अवकाशः अस्ति चेत् किं सूत्रं करणीयम् इति प्रश्नः. There is a possibility that the conditions for two different sutras are satisfied, which should be applied. And the question which arises lots of times. तदा पाणिनिना किम् उच्यते, यत् परं सूत्रं तद् भवति, विप्रतिषेधे परं कार्यं, that which is the latter sutra will be applied. So पूर्वत्र परत्र निर्णयार्थं तु क्रमः आवश्यकः एव. क्रमे भेदः अस्ति चेत् पूर्वत्वं परत्वमपि भिद्यते. सो दीस् आर् सम् आफ् द रीसन्स् वै द सूत्रक्रम आफ् अष्टाध्यायी इस् वेरि इम्पार्टेण्ट्. अयं सूत्रक्रमः प्रक्रियानुसारी नास्ति. तदानीम् अस्माभिः रामः इति शब्दः निष्पादयितव्यः. कौमुद्यां किं क्रियते, रामः इति पदम् अथवा शब्दं निष्पादयितुं यानि यानि सूत्राणि आवश्यकानि तानि दीयन्ते क्रमशः. अष्टाध्याय्यां तथा नास्ति. यथा मया उक्तं प्रकरणशः सूत्रनिबन्धनम् अस्ति. इदानीं रामः इत्यत्र किम् अस्ति, आदौ रम धातोः घञ् इति प्रत्ययः अस्ति. ओके, अण्ड् देयर् इस् अ क्वेश्चन् बै लक्ष्मी अर्थमन्ति, पूर्वत्वं परत्वं. Okay, paratvam purvatvam ityate, there is a question, let's say, let me take an example. Okay, say there is Rama Shabdaha. Rama Shabdatu Su Pratyaha Kriyata. I hope, I mean, you have a general knowledge of grammar, which is सुबन्ताः इत्युक्ते सुप् इति प्रत्ययाः सन्ति. सो इफ् यु एड् सु प्रत्यय टु राम इट् बिकम्स् रामः. एवमेव भ्यस् प्रत्यये कृते रामेभ्यः इत्यादि भवति. प्रकृति प्रत्यययोजनमेव व्याकरणम्. सो फार् एक्साम्पल् देर् इस् अ क्वश्चन् से राम सु इत्यस्ति. अत्र सूत्रद्वयस्य प्रवृत्तिः भवितुम् अर्हति. देर् आर् टु सूत्रास् विच् कुड् अप्लै देर्. वन् सूत्र इस् काल्ड् अतोभिस् ऐस् सोरि बहुवचने झलियेत् अण्ड् अदर् इस् काल्ड् सुपि च. Just take, there is a case where the conditions for applying two different sutras are satisfied. Either sutra can apply. So how do we decide which sutra to apply? Supicha iti sutram pravartaniyam va. Bahuvachane jhaliyat iti sutram pravartaniyam va iti prashnaha. The conditions which are required for supicha are also present. Conditions required for bahuvachane jhaliyat ityetad api bhavati. Tadanim kim karaniyam iti prashnaha. Katham nirnaya karaniyaha. किं सूत्रं प्रवर्तनीयम् इति चेत् पाणिनिः वदति यत् परसूत्रं परसूत्रम् इस् द वन् विच् कम्स् लेटर् इन् द अध्याय. फार् एक्साम्पल् इफ् वन् सूत्र इस् इन् सिक्स्त् चाप्टर् अण्ड् द अदर् सूत्र इस् इन् सेवेन्थ् चाप्टर्, यत् सप्तमाध्याये अस्ति तत् परसूत्रम् परसूत्रं प्रवर्तनीयं भवति. इदानीं षष्ठाध्यायस्य एकं सूत्रमस्ति, सप्तमाध्यायस्य अपरं सूत्रमस्ति, अनयोः मध्ये कस्य सूत्रस्य प्रवृत्तिः इत्युक्ते परसूत्रस्य प्रवृत्तिः. अर्थात् सप्तमाध्याये यत् सूत्रमस्ति तस्य प्रवृत्तिः भवति इति पाणिनिना उच्यते. सो इन् मेनी केसेस् वेर् देर् इस् अ कान्फ्लिक्ट् बिट्वीन् सूत्रस्, वि आल्वेस् अप्लै द परसूत्र. सो टु नो विच् इस् परसूत्र, द क्रम हेस् टु बि फिक्स्ड्. ओन्ली इफ् द आर्डर् इस् फिक्स्ड् केन् वि से दट् दिस् इस् द अर्लियर् सूत्र अण्ड् दिस् इस् द लेटर्. इफ् द क्रम इस् इट् गोस् आडि, that if we change the krama, then the purvatva and paratva will not fit, which means we will not end up with the correct prayoga. Anyacha sutra kramaha prakriyayah anusaram nasti. Arthat, idanim ramaha ityasti, rama, ramadhatoho ghai pratyayah kriyate, rama iti jatam, yatasmat su pratyayah kriyate, rama su ityasti, पकारस्य स्थाने रेफः भवति राम ऋ इत्यस्ति, रेफस्य स्थाने विसर्गः भवति रामः इति भवति. इदानीं राम घञ् इति यदस्ति सः कृत् प्रत्ययः, अतः तत्सूत्रं कुत्र भवति? कृदन्तप्रकरणे भवति. कृदन्तानाम् एकं प्रकरणमस्ति, कृदन्तप्रकरणे कृत् प्रकरणे घञ् विधायकं सूत्रं भवति. अनन्तरं किमस्ति? सुप् प्रत्ययः अस्ति, सु प्रत्ययः, सः कुत्र भवति? प्रत्ययाधिकारे सुप् प्रत्ययाः यत्र विहिताः तत्र भवति. अनन्तरं सकारस्य स्थाने रेफः कृतः, सः रेफादेशप्रकरणं यत्र अस्ति तत्र भवति. एवमेव विसर्गः तद्भिन्नस्थले भवति. इट् मीन्स् टु से दट् आल् दीस् सूत्रस् विल् बि लोकेटेड् इन् डिफरेण्ट् पार्ट्स् आफ् अष्टाध्यायी. इफ् यु ट्रै टु डिरैव् रामः फ्रम् रमधातु, you'll have to have a knowledge of almost the entire Ashtadhyayi. There is one sutra which is in first chapter and there is one more which is in the eighth chapter. Ataha prakriyanusari sutra kramaha na prakaranaanusari sutra kramaha. So to achieve his object of being compact, he has put sutras into prakaranas so that it is easier to organize, easier to keep anuratti and adhikara intact. And therefore, the sutra krama is according to prakarana and not according to prakriya in the Ashtadhyayi. Paninehe kritishu adav Ashtadhyayi ullikita ashtakam dhatu pathascha dhatu pathaha iti asti. So, actually Ashtadhyayi is the main grantha and all the others are like appendices to Ashtadhyayi. Ashtadhyayaha अर्थनिर्णयार्थं यद्यदावश्यकं तदपि अस्ति. धातुपाठः यथा नाम्ना ज्ञायते धातूनां पाठः, दशगणीयानां धातूनां प्रायः 2000 धातवः सन्ति संस्कृतभाषायां, तेषां धातूनां पाठः क्रियते. सो इट् इस् जस्ट् द लिस्ट् आफ् वर्ब्स्. भू एध इत्यादिरीत्या धातूनां पाठः क्रियते. सः धातुपाठः अर्थसहितः इति केचन वदन्ति. इदानीं यथा वयं धातुपाठं पश्यामः, टुडे वेन् वि सी धातुपाठः, ईच् धातु इस् असोसियेटेड् वित् अ मीनिङ्ग्. एक्साम्पल् दे से भू सत्तायां, भूधातोः अर्थः सप्त एध वृद्धौ एधते नाम वर्धते इत्यर्थः स्पर्ध संघर्षे इदानीं धातुपाठः कथमस्ति भूसत्तायाम् एध वृद्धौ स्पर्ध संघर्षे इत्यादि रीत्या भवति तत्र अर्थः यः अस्ति सत्तायां वृद्धौ इत्यादि सः पाणिनिनैव लिखितः इति केचन वदन्ति सम् पीपल् थिङ्क् दट् द ईस् धातु इन् द धातुपाठ वास् गिवन् बै पाणिनि अलाङ्ग् वित् इट्स् मीनिङ्ग् किन्तु बहवः वदन्ति सर्वेषां धातूनाम् अर्थः पाणिनिना न दृष्टः केवलं धातूनां पाठः कृतः कदाचित् अर्थनिर्णयः पाणिनिना दत्तः किन्तु अन्यैः आधुनिकैः वैयाकरणैः डिपेण्ड् सम्बडी लेटर् इन्क्लूडेड् अर्थास् फर् ईच् धातु लेटर् मीन्स् नाट् इन् रिसेण्ट् सम्बडी आफ्टर् पाणिनि केचनचन नामानि सन्ति सो तैः वैयाकरणैः सर्वेषां धातूनाम् अर्थाः निर्दिष्टाः इत्यपि वदन्ति सो वेदर् द मीनिङ्ग्स् themselves were given by Panini or not, the dhatu patha is Panini. Dhatu naam avalihi Panini naiva datta. Tatra ye dhatavaha santi, te eva dhatavaha samskrita bhashayam upayujyante. Sarve shabdaha dhatubhyaha eva nishpannaha ityapi ekaha pakshaha asti. There is almost all words in Sanskrit language are derived from these dhatus. So, whichever word you take, say Rama, it's derived from Ramadhatu. So similarly, when you go, you see that most of the words in Sanskrit are derived from these dhatus. Dhatubhyaha pratyayojanenaiva sarve shabdaha nishpadyante. So dashaganiyaha dhatavaha vadi adadi jahotyadi ityadi. So ganashaha karyani ashtadhyayam nirdishtani. Udaharanartham adadibhya shap jahotyadibhya shamratam adadibhyaha अदादिभ्यः लुग् विधीयते विकरणप्रत्ययस्य एवं जुहोत्यादिभ्यः श्लुः दिवादिभ्यः श्यन् इत्यादि रीत्या हि इण्डिकेट्स् पर्टिक्युलर् गणास् आफ् धातुस् एण्ड् टेल्स् द सूत्र इन् अष्टाध्यायी अष्टाध्याय्यां धातूनाम् आवलिः नास्ति देर् इस् नो कम्प्लीट् लिस्ट् आफ् धातुस् इन् अष्टाध्यायी सो फार् दट् लिस्ट् वेन् हि सेस् जुहोत्यादिभ्यः श्लुः जुहोत्यादयः के इति ज्ञातुं धातुपाठः आवश्यकः सो यु गो टु धातुपाठ एण्ड् चेक् औट् वाट् आर् द धातुस् विच् आर् इन्क्लूडेड् अण्डर् जुहोत्यादिगण सो धातुपाठः एकः अष्टकं धातुपाठश्च गणपाठस्तथैव च इत्यस्ति गणपाठ इस् वेरि सिमिलर् टु धातुपाठ धातुपाठे किमस्ति धातूनाम् आवलिः अस्ति एवमेव गणपाठे शब्दानाम् आवलिः भवति गणपाठ आल् गणपाठ आर् सीरीस् आफ् वर्ड्स् सर्वेषां शब्दानाम् आवलिः नास्ति यत्र यत्र अष्टाध्याय्यां गणाः निर्दिष्टाः तत्र गणपाठः अस्ति किम् इत्युक्ते अष्टाध्याय्यां बहुषु सूत्रेषु विशिष्टस्य पदसमूहस्य कार्यं निर्दिष्टं भवति सो हि सेस् some karya will happen for a particular class of words keshanchana shabdanam etesham shabdanam etani etat karyam bhavati iti vichyata so tadrisham padanam samuhah eka ganah so gana is nothing but a class or a group of words for example ashtadhyayam sarvadini sarvanamani vichyata kimagati sarvanama iti samnya vidhiyata sarvanama nama kim iti sarvadini Sarva, etc. Adi, Sarva and others are called Sarvanama. Sarvadayaha ke, what are the words which come under Sarvadi? Ityukte, satra ganapathaha asti, Sarvadi ganaha, ityukte. Sarvadi gane, panchatrimshat shabdaha santi. Sarva, vishva, upha, upaya, datara, datama, ityari vitya. Panchatrimshat shabdaha santi. Etesham, Sarvadi ganaha, iti nama. सर्वादिगणे ये ये शब्दाः सन्ति तेषां सर्वनामसंज्ञा भवति इति निश्चयः सो एव्रिवेर् हि टेक्स् अ गण हि नेम्स् ईच् गण आफ्टर् द फस्ट् वर्ड् आफ् द गण फर् एक्साम्पल् सर्वादिगणः इत्युक्ते तत्र प्रथमशब्दः सर्वः अजादिगणः इत्यस्ति तत्र प्रथमशब्दः भवति अज अजशब्दः प्रथमः एवं गौरादिगणः इत्युक्ते प्रथमशब्दः गौरशब्दः सो ईच् गण इस् नेम् after the first word of that gana gane
विशिष्य पदानि भवन्ति। अष्टाध्याय्यां प्रायः पञ्चाशदधिकद्विशतं सार्धद्विशतं गणाः सन्ति, आल्मोस्ट् 250 क्लासेस् आफ् वर्ड्स्। देर् इस् नो लिमिटेशन् आन् द नम्बर् आफ् वर्ड्स्। सम् गणा मैट् हाव् से वेरी फ्यू वर्ड्स्, फोर् आर् फैव् वर्ड्स्। सम् गणास् मैट् हाव् नम्बर् आफ् वर्ड्स् नम्बरिङ्ग् अप् टु 50। सो इट् डिपेण्ड्स् आन् वाट् गणा एण्ड् वाट् इस् द क्लास् आफ् गणास् बिलोङ्ग् इन् टु दट् गणा। अयमेव गणपाठः, यत्र यत्र सूत्रे गणः निर्दिष्टः तत्र तत्र गणपाठः अपि भवति। सो हि इण्डिकेट्स् अ वेरि ब्रीफ्, हि ओन्ली इण्डिकेट्स् द नेम् आफ् दट् क्लास् इन् द सूत्र एण्ड् द एक्स्पेन्शन् आफ् दट् क्लास् विल् बि फौण्ड् इन् गणपाठ। सो गणाः द्वेधा सन्ति, नित्यगणः आकृतिगणः इति गणाः सन्ति। नित्यगणः नाम कः? वाट् एवर् वर्ड्स् पाणिनि हस् लिस्टेड् इन् दट् गण, ओन्ली दोस् वर्ड्स् बिलोङ्ग् टु इट्। देर् केन् बि नो एडिशन्स्, नो सब्ट्राक्षन्स्, इट् इस् अ फिक्स्ड् गण। नित्यगणः नाम यानि पदानि पाणिनिना निर्दिष्टानि तान्येव भवन्ति, अन्यानि पदानि योजयितुं न शक्यन्ते इति एकः गणः। इत्युक्ते सः गणस्य एकः विधः। अपरः आकृतिगणः इत्यस्ति। आकृतिगणः नाम केचन शब्दाः पाणिनिना निर्दिष्टाः, तत्सदृशाः अन्येऽपि शब्दाः तस्मिन् गणे भवितुमर्हन्ति। सो अदर् वर्ड्स् विच् आर् सिमिलर् इन् कन्स्ट्रक्षन् टु दीस् वर्ड्स् केन् बि ट्रीटेड् एस् बिलोङ्गिङ्ग् टु दट् गण। उदाहरणार्थम् अजादिगणः इत्यस्ति, अजाश्वायुडक इत्यादिरीत्या स्त्रीप्रत्ययाः, टाप् प्रत्ययः तत्र भवति। सो इन् दट् अजादिगण, अजादिः आकृतिगणः नाम अन्यान्यपि पदानि सन्ति चेत् तादृशानि पदानि तत्र योजयितुं शक्यन्ते, अस्माभिः योजयितुं न शक्यन्ते। भाष्यकारेण वा अन्यैः शिष्टैः यदि प्रयुक्ताः तर्हि तेषां साधुत्वं साधयितुम् अस्मिन् गणे पाठः अङ्गीक्रियते। इट् इस् नाट् दट् यु केन् आर्बिट्ररिलि आड् एनी वर्ड् टु द गण। इफ् देर् हेस् बीन् प्रयोग, शिष्टप्रयोग आफ् अ पर्टिक्युलर् वर्ड् विच् नीड्स् इट्स् इन्क्लूशन् इन् दट् गण, इट् केन् बि ट्रीटेड् एस् बिलाङ्गिङ्ग् टु दट् गण। अत्र सर्वत्र प्रमाणं महाभाष्यम्, अन्यानि व्याख्यानानि। सो हौ डु वि डिसैड् वेदर् इट् बिलाङ्ग् टु अ गण आर् नाट्, हौ डु वि डिसैड् वेदर् अ पर्टिक्युलर् गण इस् अ नित्यगण आर् एन् आकृतिगण, all these questions will be decided mainly by the Mahabhashya and sometimes by other respected commentaries. So ganapatha ashtakam dhatu patascha ganapathas tatheva cha linganushasanam shiksha. So linganushasanam, linganam anushasanam arthat linga bodhanartham linganushasanam rachitam paninina. Linganushasane keshantana padanam लिङ्गानि इत्युक्ते विशिष्टानां पदानां तथैव प्रत्ययान्तानाम्। इदानीं घञ् प्रत्ययः भवति चेत् पुल्लिङ्गे भवति, अथवा क्तिन् प्रत्ययः भवति चेत् स्त्रीलिङ्गे, एवं नियमाः सन्ति। एतत् प्रत्ययान्ताः एतस्मिन् लिङ्गे भवन्ति इति तान्यपि निर्दिष्टानि। बट् लिङ्गानुशासन इस् नाट् अ कम्प्लीट् रेफरेन्स्, इट् डस् नाट् गिव् द जेण्डर्स् आफ् आल् वर्ड्स्। सर्वेषां पदानां लिङ्गनिर्णयं कर्तुम् अनेन न शक्यते। महाभाष्यकारः एव वदति लिङ्गम् अशिष्यं, लिङ्गस्य शासनम् अथवा यथा प्रत्ययादयः उच्यन्ते शास्त्रेण, एव शास्त्रेण लिङ्गं वक्तुं न शक्यते लोकाश्रयत्वा लिङ्गस्य। द जेण्डर् आफ् वर्ड्स् इन् संस्कृत् इट् डस् नाट् डिपेण्ड् आन् एनी इन्हेरेण्ट् प्रापर्टि आफ् द आब्जेक्ट् आर् द वर्ड्. It need not be that a stone is napumsakalinga. It need not even be that wife is strilinga. Words for wife exist in all three lingas. So, sasya vastunaha athava padarthasya lingasya sambandhaha nasti. Padasya iva lingam asti. So it is depending on the word. Any word can be, the linga cannot be told by sutras. Just like it says all pratyayas or anything can be decided from sutra, there is no such system where lingas are decided. Linga, the import of this thing is lingas are arbitrary. It is not possible to say that if a word has these properties, it has this linga. Saha tadrishaha samaha sanskrita bhashayam nasti. Ataha sarvesham शब्दानां लिङ्गनिर्णयः लिङ्गानुशासने न क्रियते, केवलं केशाञ्चनपदानां लिङ्गानि निर्दिष्टानि तावदेव. अद्यापि लिङ्गनिर्णयार्थं प्रयोगशरणम् अथवा कोशाः, यथा नामलिङ्गानुशासनमिति अस्ति अमरकोशः, तादृशानां कोशानां बलेनैव लिङ्गः निर्णेतव्यः. स्वतः लिङ्गनिर्णयार्थं नियमाः न सन्ति. एतत् जस्ट् दिस् वर्ड् इस् पुल्लिङ्ग, अयं स्त्रीलिङ्गे, अयं नपुंसकलिङ्गे, तथैव. किमर्थम् एषः शब्दः पुल्लिङ्गे एव, किमर्थं स्त्रीलिङ्गे एव इत्यस्य उत्तरं नास्ति. यु केनाट् आन्सर् सच् अ क्वश्चन्. दिस् इस् तथैव. सः स्वभावः, शब्दस्य स्वभावः, अयं पुल्लिङ्गे, अयं स्त्रीलिङ्गे, कश्चन शब्दः त्रिलिङ्गे, शब्दशक्तिस्वभावः इत्येव उच्यते. सत्यं, लिङ्गः प्रयोगवशादेव अस्ति. प्रयोगे यल्लिङ्गमस्ति तदेव लिङ्गम्. इट् इस् यूसेज् विच् डिसैड्स् लिङ्ग. यस्मिन् लिङ्गे प्रयोगः तदेव तस्य लिङ्गम्. सो लिङ्गानुशासनं, देर् आर् फ्यू रूल्स्, इट् डस् नाट् मीन् दट् देर् आर् नो रूल्स् एट् आल्. देर् आर् रूल्स् बट् दे आर् नाट् comprehensive. You can't make a complete rule for lingas. Only certain parts of it come under rules, certain parts are arbitrary. Anantaram shiksha, paniniya shiksha ityaste, yatha maya uktam uchcharanavidhihi shiksha ityuchyate. Padanam varnanam cha uchcharanavidhihi shiksha granthaihi nirdishyate. Bahavaha shiksha granthaha santi. There are many shiksha granthas. Paniniya shiksha is not the only one. This is one of them. Kimuchyate shikshayam. This is it. Prayaha shrishtihi shlokaha santi. Shloka rupena asti. Anyathapi asti paniniya shiksha. Varnanam uchcharana sthanam. Prayatnaha gatayaha. Madhya manda amad. Manda madhya tivra gatayaha. Uttama pathakanam adhama pathakanam lakshanam. Sushthu uchcharana sthi prayojanam. असमीचीन उच्चारण से दुष्प्रभाव इत्यादि. इट्स जनरल ग्रंथ विच डील्स विथ ऑल सच थिंग्स. सो एतत् पंचकम् आहत्य पाणिनीयकम् इत्युच्यते. अष्टकम् धातुपाठश्च गणपाठस्तथैव च लिङ्गानुशासनम् शिक्षा पंचकम् पाणिनीयकम्. पाणिनीयग्रन्थाः पाणिनीयम् इत्यनेन एतेषाम् पञ्चानाम् ग्रहणम् भवति. एतदतिरिच्य यथा मया उक्तं पाणिनिना काव्यान्यपि रचितानि, किन्तु तस्य व्याकरणस्यैव इदानीम् उपलब्धिः अस्ति, न तु काव्यानाम्. पाणिनिः सूत्रकारः, वार्तिककारः, वररुचिः अथवा कात्यायनः नामद्वयमपि विद्यते अस्य. इस् द वार्तिककारः. Vartika is an argument on the sutra. Vartikam namakim agre bhavati. So Vartika is a statement. Vartikam or vakyam is a statement which either questions something in the sutra or it adds on to the sutra or something like that. It is a statement which is being made on depending on a sutra. Sutrasya upari akshepaha kriyate athava sutrasya samarthanam kriyate va sutre त्यक्तानां पदानां योजनं क्रियते. एवं बहूनि कार्याणि क्रियन्ते वार्तिकेन. वार्तिकान्यपि बहुभिः वार्तिककारैः रचितानि. देर् आर् मेनि डिफरेण्ट् पीपल् हु हव् रिटन् वार्तिका. किन्तु आदरणीयः वार्तिककारः वररुचिः. महाभाष्ये सूत्राणां व्याख्यानं कृतम्, एवमेव कात्यायनस्य वार्तिकानामपि व्याख्यानं कृतम्. एव वार्तिककारः वररुचिः. तस्य पिता सोमदत्तः इत्युच्यते. सः वस्तुतः दाक्षिणात्यः, किन्तु पाटलिपुत्रे आसीत्. तस्य कालः प्रायेण क्रिस्तपूर्वचतुर्थशतकम्. दिस् इस् नाट् द लिमिट् आफ् पाणिनिस् टैम् वास् आल्सो चतुर्थशतकम्. अकार्डिङ्ग् टु सम् पीपल्, अकार्डिङ्ग् टु सम् पाप्युलर् स्टोरीस् इन् द बृहत् कथा, पाणिनिः वररुचिश्च समकालीनौ इत्युच्यते. सम् पीपल् हु क्लेम् द पाणिनि अण्ड् कात्यायन वेर् कण्टेम्पररीस्. And there are people who say, no, Vararuchi was later than Panini. Atrapi abhipraye ikamatyam nasti. Bahu bahavaha abhiprayaha santi. Bahu bahavya kathaha api santi. There are different stories also. But asya kala prayena krista purva krista shatakam iti nishtita. Paninehe kaleshe eva क्लेशः अस्ति, सप्तमशतकं वा चतुर्थशतकं वा इति खेदाः अस्ति, तस्य कालः प्रायेण निश्चितः कथमिति. अष्टाध्याय्याः वार्तिकानि अनेन विरचितानि. परशुतिसङ्ग्रहः इत्यपरः अपि व्याकरणग्रन्थः लिखितः इति ज्ञायते. यु शुड् नो दट् द वार्तिका इस् नाट् अ ग्रन्थ. जस्ट् लैक् यु गेट् अ कम्प्लीट् लिस्ट् आफ् सूत्रस् इन् अष्टाध्यायी, यु डु नाट् गेट् अ कम्प्लीट् लिस्ट् आफ् वार्तिकास् बिकास् द वार्तिका बै इट् सेल्फ् विल् नाट् मेक् एनि सेन्स्. सूत्रमस्ति, तदैव वार्तिकानाम् अपि अर्थं ज्ञातुं शक्यते. सो वार्तिका इस् आल्वेस् ट्रीटेड् वित् द सूत्र एण्ड् आर् प्रमाण फार् वार्तिका इस् अगेन् द भाष्य. महाभाष्यकारेण येषां वार्तिकानां व्याख्यानं कृतं तान्येव वार्तिकानि अस्माभिरपि अङ्गीक्रियन्ते. वार्तिककारस्य विषये अन्तिमः भाष्यकारः पतञ्जलिः. तस्य माता गोणिका इत्युच्यते, तस्य देशः गोनर्दः, गोनर्दीयः इत्युच्यते. इट् इस् इन् ईस्टर्न् सम्वेर् नियर् अस्साम् आर् सम्थिङ्ग् काल्ड् गोनर्ददेशः. अस्य कालः निश्चितः, क्रिस्तपूर्वं सार्धैकशतं 150 BC. यतो हि तस्य महाभाष्ये एव पुष्यमित्रस्य नाम उल्लिख्यते, अन्येषां राज्ञां नामानि उल्लिख्यन्ते, तेन ज्ञायते तस्य कालः. अयं शेषावतारः इति प्रतीतिः. बिलीव् वैयाकरणं बिलीव् दट् ही इस् अन् इन्कार्नेशन् आफ् आदिशेष. अत एव तस्य शेषराजः, नागनाथः, अधिपतिः इत्यादीनि नामानि सन्ति. वाट् भाष्यकारः सेस् इस् द फैनल् वर्ड् फार् एनी कान्फ्लिक्ट् रिगार्डिङ्ग् व्याकरणम्. इट् इस् बिकास् आफ् हिस् द महत्व आफ् हिस् ग्रन्थ. सो पतञ्जलिना किं किं कृतम् इत्यस्य एकः श्लोकः अस्ति प्रसिद्धः. योगेन चित्तस्य पदेन मासां मलं शरीरस्य च वैद्यकेन योपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलिरानतोऽस्मि इति श्लोकः. येन यः यः मुनिः नाम पतञ्जलिः योगेन चित्तस्य पदेन वाचां वैद्यकेन शरीरस्य च मलम् अपाकरोत्, मलम् अपाकरोत् who removed the kalmasha or the mala from citta. Yogena cittasya malam apakarot. Yoga shastram, yoga sutra dvara cittasya manasaha yan malam kalushyam tasya nivaranam akarot. So it is said Patanjali is the author of yoga sutras. Padena vacham malam apakarot. पदेन नाम महाभाष्य पदग्रन्थेन, महाभाष्यग्रन्थेन वाचां मलम् अपाकरोत्. भाषायां यत् कालुष्यं तस्य निवारणम् अकरोत्. वैद्यकेन शरीरस्य मलम् अपाकरोत्. वैद्यकग्रन्थः, ऐ थिङ्क् द चरकसंहिता ओर् वन् आफ़् द संहिता दिस् टु बि हव् बीन् रिटन् बै पतञ्जलि, वैद्यसंहिता आयुर्वेदग्रन्थ. सो बै दट् शरीरस्य मलम् अपाकरोत्, शरीरे यत् कालुष्यं तदपाकरोत्. तादृशं मुनीनां प्रवरं, मुनिश्रेष्ठं पतञ्जलिं प्राञ्जलिः आनतः अस्मि, तस्य नमस्कारं करोमि इत्यर्थः. सो पतञ्जलि इस् सेड् टु बि हव् क्रियेटेड् त्री शास्त्रस्, योगशास्त्र, व्याकरणशास्त्र एण्ड् वैद्यशास्त्र. सो वेदर् आल् दीस् पतञ्जलिस् वर् द सेम् आर् नाट्, अगेन् देर् आर् डिफ़रेण्ट् व्यूस् अमङ्ग् आल् दीस् स्कालर्स्. किन्तु साम्प्रदायिकरीत्या पतञ्जलिः योगसूत्राणां कर्ता, महाभाष्यस्य कर्ता, एवमेव आयुर्वेदसंहितायाः कर्ता इति अङ्गीक्रियते. तत्र महाभाष्यं व्याकरणशास्त्रे पाणिनीयव्याकरणस्य प्रमाणभूतं शास्त्रम्. इयन् मोर् देन् अष्टाध्यायी इत्युक्ते महाभाष्यं विच् केरीस् द अल्टिमेट्, विच् ईस् द अल्टिमेट् अथारिटि आन् व्याकरणं. महाभाष्यं, महाभाष्यं वा पठनीयं, महाराज्यं वा शासनीयम् इत्युक्तिः अस्ति. सो द स्टडि आफ् महाभाष्य इस् इक्विवलेण्ट् टु द अड्मिनिस्ट्रेशन् आफ् अ ग्रेट् किङ्ग्डम्. दट् इस् द डेप्त् आफ् महाभाष्य. महाभाष्यस्य गाम्भीर्यं तस्य अध्ययनेनैव ज्ञायते. सर्वाणि विषयाणि सन्ति तत्र, न केवलं व्याकरणसम्बद्धानि, किन्तु अन्यानि सामाजिकानि विषयाणि, राजकीयसम्बद्धानि विषयाणि, कृषिसम्बद्धविषयाणि, वैज्ञानिकानि विषयाणि, तस्य गाम्भीर्यं महदस्ति. अत एव महाभाष्यम् इत्युच्यते. वस्तुतः सूत्रं, वार्तिकं, भाष्यम् इति व्याकरणस्यैव न सन्ति. इट् इस् नाट् युनीक् टु व्याकरणं. वेदान्तशास्त्रे अपि सन्ति सूत्राणि, सन्ति भाष्यमस्ति, वार्तिकानि सन्ति. मीमांसाशास्त्रे अस्ति सूत्राणि, वार्तिकानि, भाष्याणि. सूत्रावार्तिकभाष्ये इस् द स्टाण्डर्ड् कन्स्ट्रक्षन् आफ् एनी शास्त्र. किन्तु भाष्यम् इत्यत्र महाभाष्यम् इत्युक्ते व्याकरणस्यैव तस्य महत्त्वं दृष्ट्वैव तस्य महाभाष्यम् इति नाम. महाभाष्यं बिलाङ्ग्स् टु व्याकरणं. And saying Mahabhashya, nobody will ask if it is the Bhashya of Vyakarana or Vedanta or Mimamsa. Because of the prefix Maha, Mahat Shabda is associated only with the Vyakarana Bhashya or the Patanjali Bhashya. So, Tatra Mahabhashya, Panchashiti hi Anhikani Santi. Mahabhashya is divided into Anhikas, 85 Anhikas. Sambhashana Kramaya Sutrana Vishaye Tatsa. Mahabhashya is constructed in the form of conversation. Say like conversation between a guru and shishya or between different scholars. Krishnaha kriyate tasya uttaram diyate punah prashnaha punah uttaram ityeva tasya kramaha. Aaropaha kriyate samadhanani vakshyante. Mahabhashyasya bhasha atyantam sarala. It is very easy. That is what is very deceiving. Okay. The language is very simple. किन्तु विचाराः अत्यन्तं गभीराः सन्ति महाभाष्ये. एवं मुनित्रयम् इति त्रयः आचार्याः सन्ति व्याकरणस्य, पाणिनिः, कात्यायनः, पतञ्जलिः इति. तत्र यथोत्तरं मुनीनां प्रामाण्यम् इति अपि अस्ति. यदि पाणिनेः मते वररुचेः मते च कश्चन भेदः दृश्यते तदा वररुचेः मतस्य प्रामाण्यम्. Difference between what Panini says in the sutra and what Vararuchi claims, then we take Vararuchi's words as authority and not Panini's. Similarly, if there is a clash between what Vartikakara says and Bhashyakara says, it is Bhashyakara's word which is Pramanam or authority. So authority goes in the Panini, Katyayana and Patanjali. What Patanjali says is the ultimate authority for Vaiyakarana. This is, and there are reasons. This is not Andhashraddha. This is not blind faith in saying whatever Patanjali says is correct. If you look at the Grantha, you will know that Patanjali has put so much thought into the Grantha that his conclusions are correct. And Paniniya Parampara, Sakshat Paramparaya Asi, Sa Patanjali Haki Asi. Atayeva Sasya Bhashyasya Pramanyam Asi. So Mahabhashya is the ultimate authority for anything on Vyakarana. Astu tarhi, adya samapayamaha, mangala shlokam uktva. Ena shlokamam nayana hiram maheshwaram vishnam vyakaranam sutram vishnu paanyane maha. Vakyakaram vararuchim bhashyakaram patanjali paaninim sutrakaram sattana prasmi maitraya. Mitrayan namaskritya tadukkishpari bhagyaja. वैयाकरणसिद्धान्तकौमुदीयं विरच्यते. अग्रिमशनिवासरे कक्षा तद्विषये वक्ष्यामि. कोऽपि प्रश्नः अस्ति चेत् यु केन् आल्वेस् ईमेल् मी, यु केन् आल्सो आस्क् इन् नेक्स्ट् क्लास्. बट् इफ् यु हेव् एनिथिङ्ग् इन् बिट्वीन् प्लीस् टेल् मी. धन्यवादाः.